वेदों में भगवान रुद्र शिव की स्तुति संबंधी अनगिनत ऋचाएं उपलब्ध हैं। ये रुद्र सूक्त वेदों में शिव के रूप का मनन, चिंतन और अर्चन करने वाला अद्वितीय सूक्त है। वेदोक्त रुद्र सूक्त की ऋचाओं की गूंज प्रत्येक व्यक्ति में छुपे शिव तत्व को प्रकट करती है। शिव का रुद्र स्वरूप मन के सम्मुख उद्घाटित होने लगता है। परम प्रसन्न मुद्रा के धारक कैलाश निवासी भगवान महादेव, जो चंद्रमौली, गंगाधर, नीलकंठ हैं, जिनके दर्शन और स्मरण मात्र से हर मनोकामना पूर्ण होती है। यह रुद्र सूक्त शिव की सदाशिव मूर्ति को अपने सम्मुख पाने का अति महत्वपूर्ण साधन है।
शुभका सुभद्रे का हरि ओं नमस्ते रुद्रमंडव उत कवे नम बाहुमुत नम जाते रुद्र शिवा तनो रघोराम पाप काचने तजानस्तन्वा संतमाया मेरे संता भेजा कशे जामे कौन मेरे संता हस्ते विभर खस्तवे शिवांगे रित्रतां पुरो माहिग्गो से पुरो खंजगत शिवे नवच सात्मा गिरे साच्छा बदामसे जथा नह सर्वविज्जगत यक्षमग्गो सुमना असतम अयवोचदधिवक्ता प्रथमो देव्योभिखक अहिश्च सर्वाभ्यं भयं सर्वाश्च जातु धान्यं ददाचे परासुभम् असौ जस्ताम्रो अरुण उत बबरो सुमङ्गलः ये चैनग्भो रुदराम् अभितो दिक्षुश्रिताः सहस्रशो वैखा गुहे न इमहे असौ जो वसरपति निदग्रेव विदोहितः उतैनं गोपाम् अदृश्रन्नोदहार्जः स दृष्टो मृणजातिनः नमोऽस्तु निदग्रेवा यसहराख्याय मे लोके अथो ये अस्य सतवानम् हन्तेभ्यो कदन्नमहं प्रमुञ्च धन्वनस्वमुभय राज्ञोर्ज्याम्बं याश्चते हस्त इखवः पराता भगवो वप द्वितीयान्धनोः कपरदिनं विशल्यो मानवाम् उत अनेकन्दस्य जाइखव आभूरस्य निखङ्गधेः जाते हेतेर्मे दुष्टमहस्ते बभूवते धनोः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज परिते धन्वनो हेतिरसमान् विनक्तो विषवतः अथो जयि भुजिस्तवारम् अर्मान्निधेहितं मम अवतर्य धनुष्ट्वं सहस्राक्षसते कुधे निषेर्जशल्याणां मुखा शिवो नः सुमना भव नमस्त आयुधाय नाथताय तृष्णवेम् उभाभ्यामुतते नमो बाहुव्यान्तवधन्वने मानो महान्तमुतमानो अर्भतं मान उक्षन्तमुतमान उक्षितं मानो वधेः पितरं मोतमातरं मानः प्रियास्तन्वो रुद्ररेखः मानस्तो केतनय मान आयुखे मानो गोकुमानो अश्वे खुरेरेखः मानो वीरान् रुद्रभामिनो वधे रेहविकमन्दः सदमितवाह वामहे नमो हिरण्यवाहवे सेनान्यदिशान्तपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सक्मिन्दराय त्विखेमते पथीनां पतये नमो नमो हरिकेशाय पवित्रिनं पुष्टानां पतये नमो नमो बबुलोचाय व्याधिनैनानां पतये नमो नमो भवत्य हेत्यै जगतां पतये नमो नमो रुद्राय ततायने क्षेत्राणां पतये नमो नमः सोतायां हन्त्यै वनानां पतये नमो नमो रोहितायस्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्त्रेता यौघधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमः उच्चैर्घोखाय नन्दयते पत्येनां पतये नमो नमः कृष्णाय तया धावते सर्वनां पतये नमो नमः सहमानाय निद्याधिराव्यादिनेनां पतये नमो नमो निखल्यिने ककुभायस्ते नानां पतये नमो नमो निचेरवे परिचराय रन्यानां पतये नमो नमो वञ्चते परिवञ्चते तायोनां पतये नमो नमो निखञ्जनयि कुधिमते तस्करानां पतये नमो नमः श्रीकायेभ्यो जिघाद्गोसदभ्यो मुष्णतां पतये नमो नमो श्रीमदभ्यो नक्षञ्चरद्भ्यो विक्रेन्तानां पतये नमः नम उष्णेखिने गिरिचराय कुदुञ्चानां पतये नमो नम इगुमद्भ्यो धन्वा जिभ्यश्चवो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्चवो नमो नम आयच्छद्भ्यो तद्भ्यश्चवो नमो नमो विश्रेजद्भ्यो विद्यद्भ्यश्चवो नमो नमः स्वपदभ्यो जाग्रद्भ्यश्चवो नमो नमः सहनेभ्य आसीन भ्यश्चवो नमो नमस्तिष्ठदभ्यो धावद्भ्यश्चवो नमो नमः सभाभ्यः सभापतिभ्यश्चवो नमो नमो वेभ्यो स्वपतिभ्यश्चवो नमो नम आव्याधिनेभ्यो विविजयन्तेभ्यश्चवो नमो नम उगणाभ्यस्त्रग्भ्यो हतेभ्यश्चवो नमो नमो गणेभ्यो गणपतिभ्यश्चवो नमो नमो भ्रातेभ्यो भ्रातपतिभ्यश्चवो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्चवो नमो नमो विरूपेभ्यो विषवरूपेभ्यश्चवो नमो नमः सेनाभ्यः सेनाभिभ्यश्चवो नमो नमो रथिभ्यो अरथेभ्यश्चवो नमो नमः क्षत्रभ्यः सङ्ग्रहेतृभ्यश्चवो नमो नमो महद्भ्यो अर्भकेभ्यश्चवो नमः नमस्तक्षभ्यो रथकारेभ्यश्चवो नमो नमः कुलादेभ्यः कर्मारेभ्यश्चवो नमो नमो निखादेभ्यः पुण्यष्ठेभ्यश्चवो नमो नमः स्वरिभ्यो मृगयुभ्यश्चवो नमो नमः स्वभ्यः स्वपतिभ्यश्चवो नमो नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नेदगरेवाय च शितिकण्ठस्य च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरीशयाय च शितिविष्ठाय च नमो दुष्टमाय च कुमते च नमो रस्वाय च वामनाय च नमो बृहते च वरेखेयसे च नमो वृद्धाय च सवृधे च नमो व्याय च प्रथमाय च नमः आशमे च अधिराय च नमः शीघ्राय च शीघ्राय च नमः ऊर्म्याय च वसुभ्याय च नमो नादेयाय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुध्न्याय च नमः सोऽभ्याय च प्रतिसर्जाय च नमो याम्याय च क्षेम्याय च नमः लोक्याय च वसान्याय च नम उर्वर्जाय च कल्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नम आशुखेनाय च शूरथाय च नमः शूराय च वभेदिने च नमो भिल्मिने च कवचिने च नमो वर्मिने च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो विखण्डिने च कुधिमते च नमस्तिक्ष्णेखवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च दीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च नमः कूप्याय च वज्याय च नमो वीर्याय च तप्याय च नमो मेघ्याय च विद्युत्याय च नमो वर्षाय च वर्षाय च नमो भात्याय च रेम्याय च नमो वास्तव्याय च वास्तुपाय च नमः शोभाय च रुद्राय च नमस्ताम्राय च रुणाय च नमः चन्द्रमे च पशुपतये च नम उग्राय च भीमाय च नमो देवधाय च दूरे बधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः पार्थाय च वार्थाय च नमः प्रकरणाय चोत्तरणाय च नमस्तीर्थ्याय च कुल्याय च नमः सद्भ्याय च भेन्याय च नमः श्रीकतियाय च प्रभाय य च नमः जिग्गोचिराय च क्षयनाय च नमः कपर्दिने च पुलस्ताय च नम इरिण्याय च प्रपथ्याय च नमो व्रज्याय च गोष्ठ्याय च नमस्तव्याय च गेयाय च नमो रजज्याय च निवेक्याय च नमः कात्याय च गह्वरेष्ठाय च नमः सुखियाय च हरिद्याय च नमः फाग्भोसव्याय च रजस्याय च नमो लोभ्याय चोलभ्याय च नम ऊर्व्याय च सूर्व्याय च नमः पर्णाय च पर्णसदाय च नम उद्गुणमानाय च विघ्नते च नम आखिदते च प्रखिदते च नम इभुग्रद्भ्यो धनुष्क्रद्भ्यश्च वो नमो नमो वाहकिरिकेभ्यो देवानाग्भ्यो हृदयेभ्यो नमो विचिन्वत्तेभ्यो नमो विक्षिणत्केभ्यो नम आनिरेहतेभ्यः द्रापे अन्धसर्पते दरिद्रनिदलोहितम् आसां प्रजानां मेघां पशूनां माभिर्मारोष्मोचनहम् किञ्चन ममतम् इमारुदराय तव शेखपरदिने क्षयदवीराय प्रभरा महेमतिः यथा समसद्विपदे चतुपदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्ब जाते रुद्रशिवातनोः शिवा विश्वाहा भेखजिं शिवारुतस्य भेखजिं तया नो मृरजिवसे परिणो रुद्रस्य हे दुर्भिनक्तु परितवेखस्य दोर्मतिरघायोः अवस्थिरा माधवद्भ्यस्तानुभवे जस्तोकाय तनयाय मृण मे दुष्टम शिव तम शिवो नः सुमना भव परमे रक्ष आयुधं निधा यकृतिं वसान आचर पिनाकं बिभ्रदागहे विकीर्द्रविदोहित नमस्ते अस्तु भगवः जास्ते सहस्रगो हेतयो नमस्मन्निव कन्दुताः सहस्राणि सहस्रसो बाह्वोस्तव हेतयः तासामीशानो भगवः पराकीनामुखकृधिम् असङ्ख्याता सहस्राणि जयं रुद्रा अधिभूम्याम्ब ते कुसहस्रयो जने भधन्वानितम्बसिम् अस्मिन् महत्यर्णमेऽन्तरिक्षे भवा अधि एकाग्भुसहस्रयो जनेव धन्वानि तन्वसि नीलग्रीवाः शीतिकण्ठादिवग्मो रुद्रा उपश्रिताः एकाग्भुसहस्रयो जनेव धन्वासितन्वसि नीलग्रीवाः शीतिकण्ठाः सर्वा अधः क्षमाचराः एकाग्भुसहस्रयो जनेव धन्वानि तन्मासे ये व्रक्षे कुसत्मेन्दरा ने लगरेवा विदोहिताः एका कुसहस्रयो जनेवा धन्वानि तन्मासे ये भूतानामधिपतयो विशिखासाः कपर्दिनः एकाद्भुतहस्रयो जनेव धन्वाहनि तन्मासे ये पथं पथिरक्षय ऐरवृधा आयुर्युधः एकाद्भुतहस्रयो जनेव धन्वानि तन्मासि ये तीर्थानि प्रचरन्ति श्रेका हस्तानि खण्डिनः एकाद्भुतहस्रयो जनेव धन्वानि तन्मासि येको विदान्ति पात्रे उपिबतो जनान्न एकाद्भुतहस्रयो जनेव धन्वानि तन्मासि य एका बन्धश्च भूया भूषश्च दिशो रुद्राभितस्थिरे एकाद्भुतहस्रयो जनेव धन्वाहनि तन्मासि नमोऽस्तु रुद्रेभ्यो जय दिविजे काम्बरे कविखवः तेभ्यो दश प्राचिर्दश दक्षिणा दश प्रतेचिर्दशो दीचिर्दशोर्ध्वाः तेभ्यो नमो अस्तु तेन बन्तु तेन मृडयन्तु ते जन्विखमो दश्च नो द्वेष्टितमेखाञ्जं भेष्टगमः नमोऽस्तु रुदरेभ्यो जन्तरिक्षे एकां वातैखवः तेभ्यो दश प्राचिर्दश दक्षिणा दश प्रचेचिर्दशो देचिर्दशोर्ध्वाः तेभ्यो नमो अस्तु तेन वन्तु तेन मृडयन्तु ते जन्मृखमो यश्च नो द्वेष्टितमे काञ्जं भेदगमहं नमोऽस्तु रुदरेभ्यो जे दिविजे काम्बरे कमिखवः तेभ्यो दश प्राचिर्दश दक्षिणा दश प्रचेचिर्दशो देचिर्दशोर्ध्वाः तेभ्यो नमो अस्तु तेन बन्तु तेन मृडयन्तु ते जन्विखमो यश्च नो द्वेष्टितमे हाञ्जं भेदधमः नमोऽस्तु रुदरेभ्यो येन्दरिक्षे येकां वा त इखवः तेभ्यो दश प्राचिर्दश दक्षिणा दश प्रचेचिर्दशो देचिर्दशोर्ध्वाः तेभ्यो नमो अस्तु तेन बन्तु तेन मृडयन्तु ते जन्विखमो यश्च नो द्वेष्टितमेखाञ्जं भेदधमः नमोऽस्तु रुदरेभ्यो ये पृथिव्यां येखा मन्नमिखवः तेभ्यो दश प्राचिर्दश दक्षिणार्दश प्रचेचिर्दशो देचिर्दशोर्ध्वाः तेभ्यो नमो अस्तु तेन वन्तु तेन मृणयन्तु ते जन्मृथव यश्च न द्वेष्टित मे खाञ्जं वेधगमः त्र्यम्बकं दधामहे सुगन्धिं पुष्टे वरधनम्ब उलबारुकमिव वन्दनान्मृत्योर्मुखे यमामृतात् त्र्यम्बकं दधामहे सुगन्धिं पाति उर्वानुकमिव वन्दनारितो मुक्षे यमाभूतः ॐ सद्यो जातं प्रपद्यामे सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भवद्भवान् भवोद्भवाय नमः भावदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वसर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयात् ईशानः सर्वविद्यानाम् ईश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवं शिवो नामासिद्वधिष्ठे पिता नमस्ते अस्तु बाबा हेग्गोसि निवर्तयाम्यायोखे नाद्या य प्रजननाय नाय सपोका यसु प्रजास्त्वा यसु वीर्याय विषवानि देव समेतरदूरिता निपरा शुभ जगभदरन्द आशुभ योः शान्तिरन्तरिक्षग्भो शान्तिः पृथिवी शान्तिरापः शान्तिरोगधयः शान्तिः वनस्पतयः शान्तिर्विषवे देवाः शान्तिर्ब्रह्म शान्तेः सर्वज्ञो शान्तेः शान्तिरेव शान्तिः रामा शान्तिरेधि सर्वेकाम्बा एकवेदानाङ्कुलसो यत्साम सर्वेका मे वैव मे तद्वेदानाङ्कुलसेनाभिकिञ्चति शान्ति 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 शान्तिर्भवतु सर्वारिष्टशान्तिर्भवतु सर्वोपद्रवशान्तिर्भवतु महाकाल महाराज की।